तथा महामवृधत्कस्य होतुर्यज्ञञ्जुषाणो अभिसोममोधाः पिबन्नुषानो जुषमाणो अन्धो बभक्षरिष्वश्रुचते धनाय को अस्य वीरः स धमादमापसमानंशसुमतिभिः को अस्य कदस्य चित्रम् जिगिते कदोति वृधे भवच्छशमानस्य यज्ञोः कथा शृणोति होजमानमिन्द्रः कथा शृण्वन्नवसामस्य वेद का अस्य पूर्वेरुपमादयोः कथैनमाहुः पपुरिञ्जरित्रे कथा समाधः शशमानो अस्य न शदभिद्रविणम् देध्यानः देवो भवन्न वेदामरतानान्नमो जगृभ्वाम् अभियज्जुजोषत कथा कदस्या उषसो व्योष्टौ देवामर्तस्य सख्यम् जुजोष कथा कदस्य सख्यम् सखिभ्यो ये अस्मिन् कामम् सुयुजम् ततस्रे किमादमत्रम् सख्यम् सखिभ्यः कदा नु ते भ्रात्रम् ब्रब्रवाम श्रिजे सुदृशो वपुरस्य सर्गा स्वा अर्णचित्रदममिष आगोः द्रुहम् जिघाम् सन्धरसमनिन्द्रान्ते तिक्ते दिग्मादुजसे अनेका ऋणाचिद्यत्र ऋणजान उग्रो दूरे अज्ञाता उषसो बबाधे ऋतस्य हि शुरुधः सन्ति पूर्वैरृतस्य धीतिर्वृजिनानि हन्ति ऋतस्य श्लोको बधिरादर्दकर्णा बुधानः शुचमान आयोः ऋतस्य दृढाधरुणानि सन्ति पुरोणि चन्द्रावपुषे वपोंषे ऋतेन दीर्घमिषणन्तवृक्षरतेन कावऋतमाविवेशः ऋतञ्जे मानऋतमिद्वनात् ऋतस्य सुष्मस्तु रजा उगव्यः ऋताय पृथ्वी बहुले गभीरे ऋताय धेनो परमे दुहाते नोष्टुत इन्द्र नो गृणान इषम् दरित्रे नद्यो ओ न पीपेः अकारिते हरिभो ब्रह्मनव्यम् धिया स्यामरथ्यः सदासाः